महिम्नस्ते पारं विधिहर फणीन्द्र प्रभृतयो विदुर्नाद्याप्यज्ञश्चलमतिरहं नाथनु कथं विजानीयामद्धान्ननिनयनात्मीयवचसौ विशुद्धैव क्षामीषदपि तु तथापि स्वमतितः यदाहुर्ब्रह्मैके पुरुषमितरे कर्म च परे परे बुद्धं चान्ये शिवमपि च धातारं परे तथा शक्तिं केचित् गणपतिमुतार्कं च सुधियो मतीनां वै भेदात् त्वमसि तदशेषं मम मतिः शिवः पादाम्भस्ते शिरसि धृतवानादरयुतं तथा शक्तिश्चासौ तव तनुज तेजोमय तनुः दिनेशं चैवामुं तव नयनमूचुस्तु नियमास्त्वदन्यः को ध्येयो जगति किल देवो वद विभो क्वचिन्मत्सः कूर्मः क्वचिदपि वराहो नरहरिः क्वचित् खर्वो रामो दशरथसुतो नन्दतनयः क्वचित् बुद्धः कल्किर्विहरसि कुभारा परितये स्वतन्त्रो जो नित्यो विभुरपि तवा क्रीडनमिदम् ऋताम्नायेनोक्तं स्तवनवरमाकर्ण्यविधिना द्रुतं मात्स्यं धृत्वा वपुरजरशङ्खासुरमथो क्षयं नीत्वा मृत्योर्निगमगणमुद्धत्य जलधे अशेषं सङ्गुप्तं जगदपि च वेदैकशरणम् निमज्जन्तं वार्धौ नगवरमुपालोक्य सहसा हितार्थं देवानां कमठवपुषा विषगहनं पयोराशिं पृष्ठे तमजितसलीलं धृतवतो जगद्धातुस्ते भूत् किमु सुलभभाराय गिरितः शोणीमविशदसुरो नक्रनिलयं समादायामत्यैः कमलजमुखैरम्बरगतैः स्तुतेनानन्तात्मन्न चिरमवभाति स्म विधृता त्वया दंष्ट्राग्रे सा भवनिरखिला कन्दुक इव हरिक्वास्तित्युक्ते तनुजपतिना पूर्य निखिलं जगन्नादैस्तम्भान् नरहरिशरीरेण करजैः समुत्पत्त्या शूरा वसुरवरमादारितवतः तवाख्याता भूमन् किमु जगति नो सर्वगतता विलोक्याजं द्वार्गं कपटलघुकायं सुररिपुः निषिद्धोऽपि प्रादात्तसुरगुरुणात्मीयमखिलं प्रसन्नस्तद्भक्त्या त्यजसि किल नाद्यापि भवनं बलेर्भक्ताधीन्यं तव विदितमेवामरपते समाधावासक्तं नृपतितनयैर्वीक्षपितरं हतं बाणैरोषाद् गुरुतरमुपादाय परशुं विनाक्षत्रं विष्णो क्षितितलमशेषं कृतवतो सत्कृत्किं भूभारोद्धरणपटुता तेन विदिता समाराध्योमेषं त्रिभुवनमिदं वासवमुखम् वशे चक्रे चक्रिन्न गणयदनीशं जगदिदं गतोऽसौ लङ्केशस्त्वचिरमथ ते बाणविषयं न केनाप्तं त्वत्तः फलमविनयस्यासुररिपो क्वचित् दिव्यं शौर्यं क्वचिदपिरणे का पुरुषता क्वचित् गीता ज्ञानं क्वचिदपि परस्त्री विहरणं क्वचिन्मृत्स्नाशित्वं क्वचिदपि च वैकुण्ठ विभवः चरित्रं ते नूनं शरणद विमोहाय कुधियां न हिंस्यादित्येतत् ध्रुवमवितथं वाक्यमबुधै अथाग्नीशोमीयं पशुमिति तु विप्रैग्निगदितं तवैतत्रास्थाने सुरगणविमोहाय गदतः समृद्धिर्नीचानां नयकरहि दुःखाय जगतः विभागे वर्णानां निगमनिचये चावनितले विलुप्ते सञ्जाते द्विजवरगृहे शम्भलपुरे समारुह्याश्वं स्वं लसदसि करोन्मेच्छनिकरान् निहन्तास्युन्मत्तान् किल कलियुगान्ते युगपते गभीरे कासारे जलचरवराकृष्टचरणो रणे शक्तो मज्जन्न भयद जले चिन्तयदसौ यदा नागेन्द्रस्त्वां सपदि पदपाशादपगतो गतस्वर्गं स्थानं भवति विपदां ते किमु जनः सुतैः पृष्टो वेधा प्रतिवचनदाने प्रभुरसौ अथात्मन्यात्मानं शरणमगमत्वां त्रिजगतां ततस्तेस्तातङ्काययुरथमुदं हंसवपुषा त्वया ते सार्वज्ञं प्रथितममरेशेह किमुनो समाविद्धो मातुर्वचनविशिखैराशु विपिनं तपश्चक्रे गत्वा तव परमतोषाय परमं ध्रुवो लेभे दिव्यं पदमचलमल्पेऽपि वयसि किमस्त्यस्मिन् लोके त्वयि वरदतुष्टे दुरधिगम् वृकाद्वीतस्तूर्णं स्वजनभयभित्त्वां पशुपतिर्भ्रमल्लोकान् सर्वान् शरणमुपयातोऽथ दनुजः स्वयं भस्मीभूतस्तव वचनभङ्गोद्गतमति रमेशाहो माया तव दुरनुमेयाखिल जनैः ऋतं दैत्यैर्दृष्ट्वा नृतघटमजय्यैस्तु नयतः कटाक्षैः सम्मोहं युवतिवरवेषेण दितिजान् समग्रं पीयूषं सुभगसुरपूगाय ददतः समस्यापि प्रायस्तव खलु हि भृत्येष्वभिरतिः समाकृष्टा दुष्टैर्द्रुपदतनया लब्धशरणा सभायां सर्वात्मनस्तव शरणमुच्चैरुपगता समक्षं सर्वेषां अभवदचिरं चीरनिचयः स्मृतेस्ते साफल्यं नयन विषयं नो किमु सतां वदन्त्येके स्थानं तव वरद वैकुण्ठमपरे गवान् लोकं लोकं फणिनिलय पातालमितरे तथान्ये क्षीरोदं हृदयनलिनं चापि तु सतां न मन्येतस्थानं त्वहमिह च यत्रासि न विभो शिवोऽहं रुद्राणां महममरराजो दिविशदां मुनीनां व्यासोऽहं सुरवरसमुद्रोऽस्मि सरसां कुबेरो यक्षाणामिति तव वचो मन्दमतये न जाने तज्जातं जगति ननु यन्नासि भगवन् शिरो नाको नेत्रे शशिदिनकराबम्बरमुरो दिशश्रोत्रे वाणी निगमनिकरस्ते कटिरिला अकूपारोभस्तिश्चरणमपि पातालमिति वै स्वरूपं ते ज्ञात्वा नृतनुमवजानन्ति कुधिया शरीरं वैकुण्ठं हृदयनलिनं वाससदनं मनोवृत्तिस्तार्क्षो मतिरियमथो सागरसुता विहारस्तेऽवस्था कृतयमसवः पार्षदगणो न पश्यत्य ज्ञात्वाम् इह बहिरहो याति जनता सुधीरं कांतारं विशति च तडागं सुगहनं तथोत्तुंगं श्रृंगं सपदि च समारोहति गिरे प्रसूनार्थं चेतों भुजममलमेकं त्वयि विभो समर्प्याज्ञस्तूर्णं वतन च सुखं विन्दति जनः कृतैकान्तावासा विगतनिखिलाशा क्षमपरा जितश्वासोच्छ्वासा स्त्रुटितभवपाशा सुयमिनः परं ज्योतिः पश्यन्त्यनघयदि पश्यन्तु मम तु श्रियाश्लिष्टं भूयान्नयनविषयं ते किल वपुः कदा गङ्गोत्तुङ्गामलतरतरङ्गाच्छ पुलिने वसन्नाशापाशादखिल खलदाशादपगतः श्रये लक्ष्मीकान्तां भुजनयनतातामरपते प्रसीदेत्याजल्पन्नमरवरनेशामि समयम् कदा शृङ्गैः स्फीते मुनिगणपरीते हि मनगे द्रुमावीते शीते सुरमधुरगीते प्रतिवसन् क्वचिद्ध्यानासक्तो विषयसुविदक्तो भवहरं स्मरंस्ते पादाब्जं जनिहरसमेषामि विलयम् सुधापानं ज्ञानं न च विपुलदानं न निगमो न यागो नो योगो न च निखिलभोगो परमणं जपो नो नो तीर्थं व्रतमिह न चोग्रं त्व वै तपो विना भक्तिं तेलं भवभय विनाशाय मधुहं नमः सर्वेष्टाय श्रुतिशिखरदृष्टाय च नमो नमो संश्लिष्टाय त्रिभुवननिविष्टाय च नमः नमो विस्पष्टाय प्रणवपरिमृष्टाय च नमो नमस्ते सर्वात्मन् पुनरपि पुनस्ते मम नमः कणान् कश्चिद्वृष्टे गणननिपुणस्तूर्णमवनेस् तथा शेषान् पासून् नमितकलये चापि तु जनः नभ पिण्डी कुर्याद्दचिरमपि चेचर्म वदिदम् तथापीशासौ ते कलयितुमलं नाखिल गुणान् क्वमाहात्म्यं सीमोज्झितमविषयं वेदवचसां विभोते मे चेतः क्वच विविधतापाहतमिदम् मयेदं यत्किञ्चित् गदितमथ बालेन तु गुरो गृहाणै तच्छुद्धार्पितमिह न हेयम् इमहताम्